पादपानां भयं वातात् पद्मानां शिशिराद् भयं पर्वतानां भयं वज्रात् साधूनां दुर्जनाद् भयं दृढमूलाः अपि वृक्षाः वेगयुक्तस्य वायोः कारणतः पतनं प्राप्तुम् अर्हन्ति अतः वृक्षाणां वायुतः भयम् अस्ति यदि हिमपातः भवति तर्हि कमलं नष्टं भविष्यति शिशिरऋतौ हिमपातः भवति खलु अतः कमलानि शिशिरऋतुः तः भीतानि भवन्ति पूर्वं पर्वतानां पक्षाः आसन् इति इन्द्रः तान् पक्षान् कर्तितवान् इति च कथा श्रूयते अतः वज्रायुधतः पर्वतानां भीतिः सज्जनाः यद्यपि यस्य कस्यापि अहितं न आचरन्ति तथापि परपीडनस्वभावयुक्ताः दुष्टाः विना कारणम् अपि सज्जनान् पीडयितुम् अर्हन्ति अतः सज्जनाः दुष्टजनेभ्यः भीताः भवन्ति एवं लोके एकैकस्यापि एकैकविधं भयं भवति एव